ओम श्री परमात्मने नमः। अथ चतुर्दशोऽध्यायः। श्री भगवानुवाच।
सर्वद्वारेषु देहेस्मिन् प्रकाश
जायते ज्ञानं यदा कदा वीज्या द्विवृद्धं सत्त्वमित्युत लोभः प्रवृत्तिरारम्भ कर्मणामशमः स्पृहा रजस्ये तानि जायन्ते द्विवृद्धे भरताश्रभ अप्रकाशो प्रवृत्तिष्ठ प्रमादो मोह एव च तमस्ये तानि जायन्ते विवृद्धे कुरु नन्दन यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभे तदोत्तमविदालोका नमलां प्रतिपद्यते रजसि प्रलयं गत्वा कर्मसंगिषु जायते तथा प्रलीनस्तमसि मूढयो निषु जायते कर्मणः सुकृतस्याहु सात्विकं निर्मलं फलम् रजस तु फलं दुःख मज्ज्ञानं तमसः फलम् सत्त्वात्तं जायते ज्ञानं रजसो लोभ एव च प्रमादमोहौ तमसो भवतो ज्ञानमेव च ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः नान्यं गुणेभ्यः कर्तारं यदा द्रष्टामुपश्यति गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति गुणानेतानतीत्यन् देहि देह समुद्भवान् जन्म मृत्यु जरा दुःखै इमुक्तो मृतमश्नुते अर्जुन उवाच कैर्लिङ्गैस्त्रीन् गुणानेता नतीतो भवति प्रभो किमाचारः कथं चैतास्त्रीन् गुणानति वर्तते श्रीभगवान् उवाच प्रकाशं च प्रवृत्तिं चतुर्दशः।